अथ बगलामुखी कवचम् प्रारभ्यते। श्रुत्वा च बगला पूजाम् स्तोत्रम् चापि महेश्वर इदानीम् श्रोतुमिच्छामि कवचम् वद मे प्रभो। वैरिनाशकरम् दिव्यम् सर्वाशुभ विनाशकम् शुभदम् स्मरणात् पुण्यम् त्राहि माम् दुःखनाशनम्। श्री भैरव उवाच तव च शृणु वच्यामि भैरवी प्राणवल्लभम् पठित्वा धारयित्वा तु त्रिलोक्ये विजयी भवेत्। विनियोग ॐ अस्य श्री बगलामुखी कवचस्य नारद ऋषिः अनुष्टुप छन्दः श्री बगलामुखी देवता ह्रीं बीजम् एम कीलकम् पुरुषार्थ चतुष्टय सिद्धये जपे विनियोगः। अथ कवचम् शिरो मे बागला पातु हृदये कचरे परा ओम ह्रीं ओम मे ललाटे च बगला वैरिनाशिनी। गदा हस्ता सदा पातु मुखम् मे मोक्षदायिनी वैरी जिहाधरा पातु कंठम् मे बगला मुखी। उदरम् नाभिदेंश च पातु नित्यम् परात्परा परात्परतरा पातु मम गृहम् सुरेश्वरी हस्तौ चै तथा पादौ पार्वती पर पातु मे। विवादे विषमे घोरे संग्रामे ऋतु संकटे पीताम्बरधरा पातु सर्वांगम् शिवम् नर्तके। श्री विद्या समयम् पातु मातंगी पूरिता शिवा पातु पुत्रीम् सुतच्चै कलत्रम् कलकामम् पातु नित्यम् भ्रातरम् मे पितरम् शूलिनी सदा। रन्ध्रम् हि बगला देव्यः कवचम् सन्मुखोदितम् न वै देयम् मुख्याय सर्वसिद्धि प्रदायकम् पठनात् धारणादस्य पूजनाद् वाञ्छितम् लभेत्। इदम् कवचम् ज्ञात्वा यो जपेद् बगला मुखीय पिबन्ति शोडितम् तस्य योगिन्यः प्राप्य सादरः वश्ये चाकर्षणे चैव मारणे मोहने तथा। महाभये विपतौ च पठेद्वरा पाठयेतु यः तस्य सर्वार्थ सिद्धिः स्याद् भक्तियुक्तस्य पार्वती।